שנשאר מתייעץ. אם זה ליבה, פורה הוא לא גם מבטוח. כתבה, אגרי דרמה. דתה זו, פמיתה זו, תפשיעה זו. אסמה בימי, איתה ריגרה אחת, אגיד אחת. מהם שרבות פרעני, תשעם ואיתשתיאני. מהם שרבות פרעני דעני, בודה האגדעני, איתשיירי איזה אחת, מהם שפתה בריאה רואיתה. תחלי, మానేశ్వర సూత్రాన్ని చతుర్దశ సంతే తెలుగటం ఐవన్ ఇచ్చేయాలి. చతుర్దశ మానేశ్వరాన్ని సూత్రాన్ని మహేశ్వర ఆగతాన్ని ఇది మానేశ్వరాన్ని తెలుగటం తర్వాత మానేశ్వర సూత్రేషు విద్యమాన ఆధ్యాత్మ విచారాల అవగాహ తత్ర విద్యమాన ఆధునిక గణిత విచారాల అవగాహ సూత్రాణం ఆవశ్యకతాం అధిగతవంత సూత్రై కే విచారా ప్రోక్తా అధిగతా చతుర్దశ మానేశ్వర సూత్రాణ వైలక్షణ్యం అస్మాభి స్పష్టం అధిగతం ఇది భావయామి. తదశ్చ శబ్దానాం పరిమాణ విచార శబ్దానాం పరిమాణ విచారే శబ్దా ఘటించి ఇది విచార అస్మాభిః భాష్యస్య వాక్యం దృష్ట్వా అధిగతం వర్తతే. తత్ర భాష్యే ఉక్తం మహాన్ శబ్దస్య ప్రయోగ విషయ ఉత్పద్ధీకారుమతి ప్రయోగోగా చత్వారో వేదా సాంగా దహస్యా ఇత్యాది వాక్యే భాష్యే శబ్దానాం పరిమాణ విచార ఉక్త తదస్య ఉక్తం శబ్దానాం పారాయణార్థం బృహస్పతి ఇంద్రం యథా శబ్దపారాయణం ప్రోవాచ శబ్దపారాయణం ఉక్తవాన్ తదా చేయన దివ్యం వర్షసహస్రం అధ్యయన కాల తీర్చత ఇది అస్మాభి భాష్యస్థ వాక్యై అవగతం. దివ్యం వర్షసహస్రం నామ తత్ర మానుషం పంచషష్ట్యధిక త్రిశత వర్షాణి యాని భవంతి తాని దేవానాం ఏకం వర్షం భవతి. అస్మాకం యత్ 365 డేస్ ఇచ్చేదే తద్ 365 ఇయర్స్ యత్ భవతి తద్ దేవానాం ఏకం వర్షం భవతి తద్ దివ్యం వర్షం ఇచ్చేదే. ఏమంటే దివ్యం వర్ష సహస్రం అధ్యయన కాలం అది ఇచ్చే శబ్దానాం పారాయణం బృహస్పతినా ఇంద్రాయ ఉక్తం ఇది శ్రూయతే. ఏంటి శబ్దానం పరిమాణం కియత్ స్యాత్ ఇది తేన అభిగంతుం శక్యతే. ఎది తేషాం శబ్దానాం అస్మిన్ యుగే అధ్యయనం తేనే క్రమేణ ఇది క్రియేత తర్హి మనుష్యః కదాపి శబ్దస్య సంపూర్ణతయా అధ్యయనం కర్తుం న శక్యతే ఇది తు స్పష్టం. అతః భగవతా పాణినా అష్టాధ్యాయీ ఇత్యయం గ్రంథః రచితః. సః అస్మిన్ గ్రంథే విశేషః యత్ అన్యేభ్యః గ్రంథమమం విభాగేతి యావత్రయేతి ఇది చేత్ గ్రంథేస్మిన్ సూత్రాణి ప్రణీతాని. సూత్రలక్షణం చెప్పాలి ఇష్టం. సూత్రలక్షణం భవతి అల్పాక్షరం సందిగ్ధం ఆరవద్విషదో ముఖం అశ్లోకమనవద్యం చ సూత్రం సూత్రవిదో విదుభూ ఇది సూత్రలక్షణం అస్మాభి अधिगतं वर्तते। तत्र एकैकस्यापि लक्षणस्य विस्तारतया अध्ययनम् अस्माभिः कृतम्। ततः सूत्रभेदाः दृष्टाः, पाणिना अष्टाध्याय्यां सूत्राणि कीदृशानि सूत्राणि सन्धिवीतानि रचितानि इति, तत्र संज्ञा च परिभाषा च गजनियम एव च अतिदेशोऽधिकारश्च सूत्रं सद्विधं स्मृतम् इति श्लोकेन वयं सूत्राणां भेदाम् अवगतवन्तः। तदस्य सूत्रलक्षणान्यपि अस्माभिः दृष्टानि, तेषाम् उदाहरणानि च दृष्टानि। तत्र अष्टाध्याय्यां कति सूत्राणि सन्ति, कति पादास्सन्ति, कति अध्यायास्सन्ति, कति पादाश्च सन्ति इत्यधिगतम्। एवञ्च अत्र वैशिष्ट्यं किम् अस्मिन् अस्याम् अष्टाध्याय्यां वैशिष्ट्यं किम् यत् अन्येभ्यः ग्रन्थेभ्यः अथवा बृहस्पतिना यद् इन्द्राय प्रोक्तं तस्माद्वा अस्य वैशिष्ट्यम् इतोपि अधिकतां यादि इत्यत्र निर्माणम् कीयकारणम् इति परिशीलने इदमवगम्यते। तत्र बृहस्पतिः यदा इन्द्राय वर्षसहस्रं पारायणं भवाच, तत्र दिव्यं वर्षसहस्रं कालः अपेक्षितः आसीत्। आदिकेऽस्मिन् काले यदि मनुष्यः जीवति तर्हि सः अधिकाधिकं शतवर्षं जीवति, एवञ्च अध्ययनकालनास्ति मानुषीयं शतवर्षं न तु दिव्यं वर्षशतम्। तत्र मनुष्यस्य वर्षशतं यद्भवति तत् देवानां शतदिनानि एव भवितुमर्हन्ति। एवञ्च शतसु दिनेषु शतं दिनेषु कथम् अस्माभिः सम्पूर्णस्य व्याकरणस्य शब्दानां वा अध्ययनं कर्तुं शक्यम् इति यदा पाणिना चिन्तितं तदा पाणिनिः अष्टाध्यायी इत्याख्यां ग्रन्थित्याख्यं ग्रन्थं रचितवान्। ग्रन्थे च अस्मिन् तेन उत्सर्गापवादन्यायः आश्रितः, उत्सर्ग अपवादन्यायः। उत्सर्गापवादन्यायः नाम उत्सर्गः नाम सामान्येन इत्यर्थः, अपवादो नाम विशेषः इत्यर्थः, सामान्यविशेषः इत्यर्थः। सामान्यतया किञ्चित् सूत्रं प्रचयति येन च बहूनां शब्दानां युगपत् सिद्धिः जायते। तपश्च सामान्यस्य सूत्रसामान्यं किञ्चित् सूत्रं निरचय्य ततः विशिष्टानां सूत्राणाम् अपवादसूत्राणां रचनां करोति। अपवादसूत्रं नाम सामान्यस्य अपवादसूत्रवैशिष्ट्यं किम् इत्युक्तौ, यत्र विशेषरूपाणि भवन्ति तानि च सामान्यसूत्रैः न भिद्यन्ते तानि। एवञ्च बहूनां शब्दानां सिद्धिः सामान्येनैव सूत्रेण सिद्ध्यते। तत्र अल्पाद्यशब्दास्सन्ति येषां विशेषनियमः विधातव्यः, यथा इदानीं रामशब्दम् अवलोकयामः, रामः रामो रामाम इति रूपत्रयम् अस्माभिः सामान्यतया मया परिचयार्थम् उच्यते। रामः रामो रामाम एवमेव कृष्णः कृष्णौ कृष्णाः, गोविन्दः गोविन्दौ गोविन्दाः, एवञ्च किञ्चित् सामान्यसूत्रैरेव रामः रामो रामः कृष्णः कृष्णो कृष्णः गोविन्दः गोविन्दो गोविन्दः इत्येवं क्रमेण अकारान्तशब्दानां सर्वेषामपि निष्पत्तिः कैश्चित् सूत्रैः सामान्यसूत्रैः जायते। ततः सर्वशब्दस्य प्रथमबहुवचने सर्वे इति रूपं भवति। तदर्थं किञ्चित् विशिष्टं सूत्रं रचयति पाणिनिः इंद्राय शब्दानां पारायणं भवति स्म तदा तस्य क्रमः एवमासीत् इति श्रूयते। एकैकमपि पदं स्वीकृत्य रामः रामो रामाः रामं रामो रामाः इति क्रमेण सप्तस्वतिविभक्तिः तस्य पारायणं कृत्वा तथा गोविन्दशब्दस्य पारायणम् एवमेव कृत्वा तथा कृष्णशब्दस्यापि पारायणम् एवमेव कृत्वा वर्षसहस्रं द्विजं वर्षसहस्रं पाठनाय यथाशीत् इति एकैकमपि पदं यदि पाठयितुम् उद्यन्ते तर्हि साधनतावान् अपेक्षितम्। अतः पाणिनिः एतादृशं विशिष्टम् एकं पद्धतिम् आश्रितवान् यत् प्रति उत्तरजापवादन्यायेन सूत्राणि प्रणीतानि येन च सामान्यशब्दानां निष्पन्नं तेनैव जायते, विशिष्टशब्दानां सर्वे इत्यादीनां निष्पादनम् अपवादसूत्रैः विशेषतया विहितम्। एवञ्च केवलैः प्रायः चतुस्सहस्रसूत्रैः सर्वेषामपि शब्दानां निष्पादनम् अभूत् इत्यस्य वैशिष्ट्यम्। एवञ्च मनुष्यः इदानीं द्वादश वा मनुष्यः अल्पेनैव कालेन सम्पूर्णं व्याकरणम् अभिगन्तुं शक्नोति इत्यस्य व्याकरणस्य पाणिनीयव्याकरणस्य वैशिष्ट्यम्। बहूनि व्याकरणानि आसन् इत्यस्माभिः श्रुतम्। ऐन्द्रं चान्द्रं चापि कृष्णादि व्याकरणानि बहु नवव्याकरणानि आसन् इति अस्माभिः श्रूयते। तेभ्यः व्याकरणेभ्यः इदं पाणिनीयं व्याकरणं कथं भिद्यते इत्युक्ते व्याकरणानि द्विधा दृश्यन्ते, द्विधा वा त्रिधा वा इति वक्तुं शक्नुमः। लौकिकव्याकरणानि इति कानिचन व्याकरणानि सन्ति, वैदिकानि व्याकरणानि इति कानिचन, लौकिकवैदिकव्याकरणानि इति कानिचन। तत्र लौकिकव्याकरणानि नाम लोके विद्यमानानां शब्दानां साधनार्थं लौकिकव्याकरणं प्रादुर्भूत्, वैदिकव्याकरणञ्च वेदे विद्यमानानां शब्दानां व्युत्पत्तिप्रदर्शनाय पुनः व्याकरणसौष्ठवार्थं वैदिकव्याकरणानां प्रादुर्भावः जातः। लौकिकवैदिकव्याकरणानि च यत्र लोके विद्यमानानां शब्दानां वेदे विद्यमानानां च शब्दानां शब्दानां विचारः क्रियते लोके वैदिकविद्यमानानां शब्दानां। पाणिनीय व्याकरणस्य अष्टाध्याय्याः वैशिष्ट्यमिदम् अस्मिन् व्याकरणे लौकिक वैदिक युगयोः अपि उभयोपि विद्यमानानां शब्दानां व्याकरणम् अनेन अत्र प्रणीतम्। अस्तु, बहूनि व्याकरणानि पुरा व्यभूवन् लौकिकानि वैदिकानि उभयानि उभयसम्बन्धीनि अस्य वैशिष्ट्यं किम् इत्युक्तौ निर्दिष्टं व्याकरणम् सर्वेऽपि शब्दाः अनेन व्याकरणेन साधयितुं शक्याः इति विद्वांसः अत्र प्रमाणीभूताः। सर्वेऽपि शब्दाः अनेन साधिताः। एवञ्च अत्र वैशिष्ट्यम् एतावदस्ति। इदानीं पाणिनीयव्याकरणे पाणिनि अष्टाध्याय्यां ये अष्टौ अध्यायाः सन्ति तेषु विभागः कथं कृतः इति विषये पर्यालोचयामः। यद्यपि बहवः विभिन्नान् विभागान् प्रदर्शयन्ति तथापि अत्र पुरतः दृश्यमानः यः विभागः अस्ति तयोः विभागः प्राधान्यतया अयं स्थूलविभागः प्राधान्यतया अयं विभागः आश्रीयते। तत्र बहुभिः विभागविषये अयं विचारोऽपि स्वीक्रियते तथा हि कैश्चित् उच्यते अध्यायद्वये वाक्यपदानां सञ्चरणं कृतं वाक्यविचाराः पदविचाराश्च सञ्चरिताः तृतीयाध्यायतः पञ्चमाध्यायपर्यन्तं प्रतिप्रत्ययानां विभागः कल्पितः इति षष्ठाध्यायपर्यन्तं प्रकृतिप्रत्ययादीनाम् आदेशागमादीनां विचारः प्रोक्तः इति तेषाञ्चन मतम्। तदपि तत्र नास्ति दोषः, परन्तु तत् स्थूल बहु स्थूलविचारः अभूत्। इतोपि सङ्ग्रहे इतोपि सूक्ष्मः विचारः अयमित्यत्र पुरतः भवतः। प्रथमाध्याये पाणिनिना संज्ञासूत्राणि परिभाषासूत्राणि च सङ्गृहीतानि। संज्ञासूत्राणि संज्ञाविषये बद्धि ज्ञातानि। तत्र वृद्धिरालये इत्यालक्ष्य संज्ञासूत्राणि सङ्गृहीतानि पाणिनिना। वृद्धिरालैः अरेन्गुणः इतो अरेन्गुणः इत्यादीनि सूत्राणि तत्र प्रथमाध्याये सङ्गृहीतानि। परिभाषासूत्राणि च सङ्गृहीतानि। परिभाषासूत्राणि यथा तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य इत्यादीनि परिभाषासूत्राणि पाणिनिना प्रथमाध्याये सङ्गृहीतानि। तत्र कारणमपि किञ्चिदस्ति, संख्यासूत्राणां परिभाषासूत्राणां च पारार्थ्यम् इति उच्यते। पारार्थ्यं नाम एतेषां स्वतन्त्ररूपेण प्रयोजनं न किञ्चित् वर्तते। एतेषां प्रयोजनं विधिसूत्रैः सह एव भवति। इदानीं षट्सु संख्यापरिभाषा विधिनियम अधिकार अधिदेश एतेषु षट्सु अपि शरीरेषु अपि सूत्रेषु विधिसूत्राणि स्वार्थयुक्तानि भवन्ति। अन्यानि सर्वाणि अपि परार्थान्येव इति अभिधीयते। तत्र संख्यासूत्राणि परिभाषासूत्राणि च परार्थानि इति कृत्वा एतत्रैव तेषां सर्वेषामपि सङ्ग्रहः कृतः। तदस्य द्वितीयोऽध्याये विभक्त्यर्थाः समासाश्च प्रोक्ताः। विभक्त्यर्थाः नाम रामारामो रामाः इत्यादिषु अस्माभिः विभक्तयः दृश्यन्ते। प्रथमा द्वितीया तृतीया चतुर्थी इत्येवं षष्ठविभक्तयः प्रोक्ताः सप्तविभक्तीनां षट्कारकाणि च प्रोक्तानि। एवं च छन्दादि कारकाणां विचारः प्रथमाध्यायस्य चतुर्थभागे कारकाधिकारे कारकसंज्ञकानि सूत्राणि प्रोक्तानि। अपादानकारकम् इत्यपादानसंज्ञाविधायकं सूत्रं प्रथमाध्यायस्य चतुर्थभागे प्रोक्तम्। प्रत्यध्यायमपि विशेषविचाराः अद्यैव क्रियन्ते। इदानीं सामान्यतया प्रत्यध्यायं द्वितीयविचाराः प्रोक्तानि द्वित्र उच्यते। द्वितीयाध्याये विभक्त्यर्थाः समासाः विभक्त्यर्थाः तेन कार्यपेक्षेण के के विभक्तयः विधीयन्ते, काष्ठाः विभक्तयः विधीयन्ते, विशिष्ट उपपदविभक्तयः ये कारकविभक्तयः के इति विचाराः कृतः। तत्र कर्मणि द्वितीया इत्यादि सूत्रैः द्वितीया विभक्तिः, तत्कृतेण तृतीया इति तृतीया विभक्तिः, इत्येवं क्रमेण विभक्तीनां परिचयः प्रदत्तः। समासपरिचयोऽपि तस्मिन्नेव अध्याये प्रोक्तः। तथा हि सः कृपा इत्यादि सूत्रेण, तत्पुरुषः इति सूत्रेण, शेषे बहुव्रीहिः, सार्थे द्वन्द्वः, अव्ययीभावः इत्यादीनि सूत्राणि समासविधायकानि समासविधायकानि च सूत्राणि द्वितीयाध्याये उपनिबद्धानि। तृतीयाध्याये प्रत्ययाधिकारः। तृतीये चतुर्थपञ्चमाध्यायेषु प्रत्ययाधिकारः अस्ति। प्रत्ययः इत्यधिकारः, अधिकारो नाम सर्वैः ज्ञायते। यः एकस्मिन् स्थले स्थित्वा अन्यत्र सर्वत्रापि आत्मानं व्यापारयति सः अधिकारः। एवञ्च तृतीयाध्यायस्य प्रथमं तृतीयाध्यायस्य प्रथमं सूत्रमिदं प्रत्ययः इति। तदा आरभ्य पञ्चमाध्यायसमाप्तिं यावत् प्रत्ययाधिकारः वर्तते। तत्र द्वितीयाध्याये विभक्त्यर्थाः समासाश्च उक्ताः। तृतीयाध्याये धातुभ्यः क्षन्तव्यः। तृतीयाध्याये धातुभ्यः विहिताः प्रत्ययाः प्रोक्ताः। चतुर्थपञ्चमाध्यायोः स्त्रीप्रत्ययाः दशप्रत्ययाश्च प्रोक्ताः। धातुभ्यः ततः आदौ प्रत्ययाः ततःपरं स्त्रीप्रत्ययः ततःपरं दशप्रत्ययः इत्यस्यापि किञ्चित् कारणमस्ति। सर्वेऽपि शब्दाः धातुतः एव निष्पन्नाः इति कश्चन सिद्धान्तः वर्तते व्याकरणशास्त्रे। सर्वेऽपि शब्दाः धातुभ्यः एव निष्पन्नाः इति। अतः धातुभ्यः विहिताः प्रत्ययाः आदौ प्रोक्ताः। तत्र धातुभ्यः विहिताः प्रत्ययाः दृदन्तादि प्रत्ययाः भवन्ति, किं दृष्ट इत्यादयः प्रधानादयः प्रत्ययाः। तत्र धातुभ्यः प्रत्ययानां निधानानन्तरं चतुर्थपञ्चमाध्यायोः स्त्रीप्रत्ययाः दशप्रत्ययाश्च विहिताः। तत्र चतुर्थाध्यायस्य प्रथमभागे स्त्रियाम् इत्यारभ्य तद्धिराय सूत्रस्य पाक्पर्यन्तं स्त्रीप्रत्ययानां निधानं वर्तते। ततः तद्धिराय सूत्रमारभ्य पञ्चमाध्यायस्य समाप्तिपर्यन्तं तद्धिरप्रत्ययाः प्रोक्ताः। ततः षष्ठाध्याये तृतीयचतुर्थपञ्चमाध्यायेषु प्रत्ययाधिकारम् उक्त्वा षष्ठाध्याये किं सन्धिस्वरादीनां निरूपणं करोति। तत्र षष्ठाध्यायस्य प्रथमभागे वित्तविचारोऽपि निषप्रोक्तः, तस्मिन् सम्बन्धे वित्तविचारः प्रोक्तः। तत्र सन्धिस्वरादीनां निरूपणं च करोति। सन्धिविचारः यथा इको यणति इत्यादि सूत्राणि, स्वरादिविचाराश्च तत्रैव षष्ठाध्याये षष्ठाध्यायस्य द्वितीयतृतीयपादयोः स्वरविचाराः प्रोक्ताः।
तथा षष्ठाध्यायस्य चतुर्थभागस्य प्रथमं सूत्रमिदम् अङ्गस्य इति तदारभ्य अङ्गाधिकारम् आरभ्यते। अङ्गाधिकारः नाम अङ्गं नाम यस्मात् प्रत्ययेति सुरादिप्रत्ययनम् इति एकं सूत्रमस्ति, तेन अङ्गसंज्ञा विधीयते। अत्र अङ्गेभ्यः ये विधानां प्रोक्ता ते सर्वेपि प्रथमाध्याये सङ्गीताः। यस्मात् प्रत्ययेति सुरादिप्रत्ययनम् इति सूत्रम्, प्रत्ययः यदि सरः भवति अयं सामान्यः अर्थः तस्य सूत्रस्य। यस्मात् प्रत्ययेन परः भवति ततः पूर्वं यः भागः अस्ति प्रतिभागः तस्य अङ्गम् इति संज्ञा, सामान्यः अर्थः अयं तस्य अङ्गम् इति संज्ञा। एवं च अङ्गसंज्ञाविधानानन्तरं तस्य अङ्गसंज्ञायाः प्रयोजनं तावत् अङ्गाधिकारे विधीयमानानि सूत्राण्येव तत्र प्रयोजनानि। अङ्गाधिकारस्य आरम्भ षष्ठाध्यायस्य चतुर्थभागे अङ्गस्य इति सूत्रात् आरभ्यते, तस्य प्रथमं सूत्रम् अङ्गस्य इति सूत्रम्। ततः सप्तमाध्याये अङ्गाधिकारस्य विषयाः अनुवर्तन्ते। सम्पूर्णेपि यदि सन्देहः नास्ति चेत् भवन्तः प्रष्टुमर्हन्ति। पुष्पादिचित् महाभागा एषा या अस्ति सा इदानीं पाणिनीयशोधकेन्द्रः शोधकेन्द्रमिति किञ्चित् केन्द्रं वर्तते विलासपुरग्रामे, विलासपुर इति नगरमस्ति छत्तीसगढ़। तत्र सा काचित् निवृत्ता प्राध्यापिका या च अष्टाध्यायीविषये विशिष्टं श्रमम् ऊढवती वर्तते। तस्याः अयं ग्रन्थः, तत्र सः ग्रन्थः सर्वेषां सुपृतो भवति इत्यत्र सन्देहः नास्ति। अवश्यं तं ग्रन्थं स्वीकुर्वन्ति चेत् भवतां महते लाभाय भवति इत्यत्र प्रश्नाः सन्ति वा? एवं तर्हि प्रश्नाः न सन्ति इति भावयामि। अनेन अद्यतनकक्ष्याम् अत्रैव समापयामि। मङ्गलं कुर्मः। हीनाक्षरमाम्नायमभिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन भूपादिरः पुंसां विमलैश्वरवारिभिः समस्ताज्ञानजं भिन्नं तस्मै पाणिनये नमः।